राम। श्रीमद् भगवत गीता पाठ परम श्रद्धेय स्वामी जी श्री राम सुखदास जी महाराज जी के मुखारविंद से। राम
राम राम राम। ओम अस्य श्री गीतामाला मंत्र से भगवान वेद व्यास ऋषि अनुष्टुप संभव श्री कृष्ण परमात्मा देवता अशोच्यानन्न शोचस्तुम्रज्ञावादांस्तु भाषसे इति बीजम् सर्वधर्मान् परित्यज्य मानेकम् शरणम् व्रज इति शक्ति अहं त्वा सर्वभावयो मोक्षयिष्यामि नैनं सिन्दन्ति शस्त्राणेन लैङ्गिकादिपावकोष्टाभ्यां नमः सेनं क्रीडयन्त्यापो नाशोष्यति मन्तः ಭಾವ್ಯಾಂಗಣ नैनं सिन्दन्ति शस्त्राणि नैनं दहति कालयोदयाय नैनं कृतयन्त्यपूर्णाशु श्रीमान्त अच्युत्यमदायुमत्रेति शिखायै वसत् नित्यस्तर्वगतस्थानं पूर्वं सनातन इति कौचायम् पश्चिमे पाचरूपाणि शतशोतोषसायभूषट् नानाविधानि दिव्यानि नानावर्णाकृतीनि श्रीकृष्णस्य पाठे विनियोग पार्थाय प्रतिबोधिताम् भगवता नारायणेन स्वयम् व्यासेन ग्रथितं पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवती मष्टादशाध्यायिनी मम त्वामनुसन्दधामि भगवत् ीते भवद्देशिनी नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रमेत येन त्वया भारत तैलपूर्ण प्रज्वालितो ज्ञानमय प्रदीप प्रपन्न पारिजाताय स्तोत्रवेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः वसुदेवसुतं देवम् कंसचानूरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् भीष्माद्रोणतटा जगद्रथ जला गान्धारनीलोत्पला शल्यग्रावती कृपेण वहनी कर्णेन वेलाकुला अश्वत्थामविकर्णघोरमकुरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवैरनदी कैवर्तक केशव पाराशर्यवतः सरोजममलम् गीतार्थसन्दोत्कृतम् नानाख्यानकेसरम् हरिकृता सम्बोधनाबोधितम् लोके सज्जनसत्त्वरैर ते पीयमानम् मुदा भूयाद्भारतपङ्कजम् कलिमल प्रध्वंसिना शिरसे मूकम् करोति वाचालम् अङ्गुम् लङ्घजते गिरिम् यत्कृपातमहं वन्दे परमानन्दमाधवम् यं ब्रह्मा वरुणेन्द्ररुद्रमरुतस्तोन्वन्ति दिव्यैस्तवैर्वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगा ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यम् योगिनो यस्यान्तम् न विदो सुरासुरगणा देवाय तस्मै नमः ॐ श्री परमात्मने नमः अथ श्रीमद्भगवद्गीता प्रथमोऽध्याय धृतराष्ट्रोवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायो योत्सव माम काः पाण्डवाश्चैव किम कुर्वत संजय संजय उवाच दृष्ट्वा तु पाण्डवानीकम् योधम् दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजा वचनमब्रवी पश्यैताम् पाण्डुपुत्राणा माचार्य महतीं समम् योढां द्रुपदपुत्रेण तव शेषेण धीमता अत्र शूरमहेश्वासा धीमार्जुन समायुधे युयुधानो विराटस्य द्रुपदस्य महारथ भीष्टकेतुस्ते किदान काशीराजस्त वीर्यवान् पुरुजेत् कुन्ति भोजस्य शैव्यस्त नरपुङ्गव युधामान्योऽस्त विक्रान्त उत्तमौजास्त वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथा अस्माकं तु विशिष्टये तान्निबोधद्विजोत्तमा नायका मम सैन्यस्य संज्ञार्थं तान्गवीमिते भवान् भीष्मश्च कर्णश्च कृपस्त समिधिञ्जय अश्वत्थामाविकर्णश्च सौमदतेस्तथैव च अन्ये च बहवः शूरा पदार्थे त्यक्त जीवा नाना शस्त्र प्रहरणा सर्वे युद्ध विशारदा अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् अयनेषु च सर्वेषु यथा भागमवस्थिता भीष्ममेवाभिरक्षन्तु भवन्तः सर्वैव हि तस्य सञ्जनयन् हर्षं कुरु वृद्ध पितामह सिंहनादं विनद्योषी शङ्खं वद्मौ प्रतापवान् ततः शङ्खाश्च धैर्यश्च प्रणमानकगोमुखा सहसैवाभ्यहनन्त सशब्दस्तुमुलो भवत् ततः श्वेतैरयैर्युक्ते महती स्यन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतु पाञ्चजन्यौ ऋषिकेशो देवदत्तं धनञ्जय पौण्ड्रं दध्मौ महाशङ्खम् भीमकर्मा विगोदर अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिर नकुल सदेवस्य सुघोषमणिपुष्पकौ काश्यस्त परमेश्वस्य श्रीखण्डी च महारथ ज्येष्ठद्युम्नो विराटस्त सात्यकीश्च पराजित द्रुपदो द्रौपदेयास्त सर्वसविधिविपते सौहद्रस्त महाबाहु शङ्खान् दध्मो पृथक्पृथ प्रभोषो धातु राष्ट्राणां हृदयानि व्यदारय नभस्त पृथिवीं चैव तुमुलो व्यनुनादयन् अथ व्यवस्थितान् दृष्ट्वा धातुराष्ट्रान् कविध्वज प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्यपाण्डव ऋषिकेशं तदा वाक्य मृगमाहमहीपते सेनयोरुभयोर्मध्ये रथं स्थापयमेत्युत यावदेतान्निरीक्षेऽहं योक्तु कामानवस्थितान् कैर्मया सह योद्धव्य मास्मेन्द्रणसमुद्य मे योत्स्यमानानवेक्षेयम् समागता धातुराष्ट्रस्य दुर्बुद्धि युद्धे प्रियसि कीर्षव सन्निवाच एवमुक्तो ऋषिकेशो पुराकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् भीष्माद्रोण प्रमुखत सर्वेषां च महीक्षिताम् उवाच पार्थ पश्यैतान् समवेतान् कुरु नीति तत्रापश्यस्थितान् पार्थ नथ पितामहान् आचार्यान् मातुलान् भ्रातीन् पुत्रान् पौत्रान् सखीन् सदा श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि तान् समीक्ष्य स कौन्थेय सर्वान् बन्धूनवस्थितान् कृपया परयाभिष्टो पिशीलन्निदमब्रवीत् अनुवत् देष्टेमं स्वजनं कृष्ण युयोक्षुं समुपस्थितम् ीदान्ति मम गात्राणि मुखं च परिशोष्यति वेपथोश्च शरीरे मे रोमहर्षश्च जायते गाण्डीवं स्रंसते हस्तात् त्वक्षैव परिदह्यते न च शक्नोम्यवस्थातुम् धमतीव च मे मन निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयो नु पश्यामि हत्वा स्वजनमावि न काङ्क्षे विजयं कृष्ण न स राज्यं सुखानि च किं नो राज्येन गोविन्द किं भोगे जीवितेन वा येषामार्थे काङ्क्षितं नो राज्यं सुखानि च तैमेव स्थिता युद्धे प्राणाश्चत्वाधनानि च आचार्या पितरः पुत्रा तथैव च पितामहः मातुलः श्वशुरः पौत्रा श्यालः सम्बन्धिनस्तथा एतान्नहन्तुमेच्छामि न तोऽपि मधुसूदन अपि त्रैलोक्य राज्यस्य हेतोऽपि महि कृते निहत्य धर्तराष्ट्रान्न कापि स्याज्जनार्दन पापमेवाश्रयेदस्मान् धर्तैकानाथतरिण तस्मान्नारावयम् धातराष्ट्रान् स बान्धवान् स्वजनां हि कथं हत्वा सुखिनस्याम माधव यद्यप्येते न पश्यन्ति दूरोपहतचेतस कुलक्षयकृतं दोषं नेत्रद्रोहे च पातकम् कथं न ज्ञेयमस्माभिः पापात्स्नान्निवासितुम् कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन कुलक्षये प्रणश्यन्ति कुलधर्मा सनातना धर्मे नष्टे कुलं कृष्ण मधर्मोऽभिभवत्युत अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्य श्रीषु दुष्टासु वाष्णेय जायते वर्णशङ्कर शङ्करो नरकायैव कुलमाङ्कुलस्य च पतन्ति पितरो येषां गुप्तपिण्डोदकक्रिया दोषैरेतैः कुलघ्नानां वर्णशङ्करकारकी उत्साद्यन्ते जातिधर्मा कुलधर्माश्च शाश्वता उत्सान्न कुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासो भवतीत्यनुसूष्म अहो बत महत्पापं कर्तुं व्यवसिता वयम् यद्राज्यसुखलोभेन नान्तुं स्वजनमोद्यता यदि मामप्रतीकार मशस्त्रं शस्त्रपाणय धातुराष्ट्रारणे हन्य स्तम्भे क्षेमकरं भवेत् एवमुक्त्वार्जुन सङ्ख्ये रथोपस्थ उपाविशत् विसृज्य सशरं चापं शोकसंविघ्नमानस शोकसंविघ्नमानस ॐ तत्सदश्रीमद्भूतात्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अपुरुषादियोगनां कर्तुं